एषः रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः ध्रुव भट्टराई। प्रधानमन्त्री केपी शर्मा ओली वैदेशिक निवेशले संचालितानाम् आयोजनानाम् धन संचयगतम् व्ययम् वर्धयितुम् निर्देशति। राष्ट्रिय विकास समस्या समाधान समिति गतदिने सिंहप्रासादे उपविष्टि सप्तचत्वारिंशे उपवेशी प्रधानमन्त्री ओली सर्वकारस्य लक्ष्यस्य अनुसारेण आयव्ययकम् व्ययीकर्तुम् विकास निर्माणय कार्यसु गतिम् दातुम् च निर्देशत। प्रधानमन्त्री ओली अवदत् विकास निर्माणय आयोजनासु गतिम् दातुम् सर्वे निकाय स्वेषाम् कार्यशैली परिवर्तनीय। उपवेशन प्रस्तावितस्य सगरमाथा संवादस्य सम्पादनाय परराष्ट्र मन्त्रालयेन सगरमाथा संवाद सचिवालयेन सह समन्वयम् संस्थाप्य सर्वै मन्त्रालय स्वस्व दायित्वम् पूरयितुम् गतवर्षे सम्पन्नस्य निवेशन सम्मेलनस्य क्रमे मित्रराष्ट्रै व्यक्ताय प्रतिबद्धताय अनुसारेण निवेशन प्रवेशनाय राष्ट्रिय योजना आयोगस्य आर्थिक क्षेत्रावलोकनकर्तृ सदस्यस्य संयोजकत्वे सम्बद्धानाम् अन्येषाम् निकायानाम् पदाधिकारिणाम् सदस्यानाम् संयन्त्रमेकम् संघटयितुम् च निर्णीतम् वर्तते। प्रतिनिधिसभाया ह्यस्तनोपवेशोऽपि प्रमुख प्रतिपक्षणो नेपाली कांग्रेस दलस्य अवरोधनस्य कारणेन स्थगितः। सभामुखेन अग्निप्रसाद सापकोटा विधेन उपवेश प्रारम्भणस्य घोषणाय अनुपदमेव नेपाली कांग्रेस दलस्य सांसदै स्वस्वस्थानात् उत्थाय निरन्तरं विरोधनस्य अनन्तरं ह्यस्तनोपवेश स्थगितीकृतः। नेपाली कांग्रेस दलस्य उपसभापति विजय कुमार गच्छदारस्य विरूद्धस्य न्यायिक प्रकरणं न्यायालये प्रविष्ट विषयः संवैधानिक योगस्य निर्णयश्च वर्तते इत्यतः सांसदः तस्य निरूपणं कर्तुं न शक्यते इति भाषमाण सभामुख सापकोटा नेपाली कांग्रेस दलस्य सांसदान् उपवेशस्य संचालनाय सहयोक्तुं भूयो भूय अनुरुणत। भूयो भूय अनुरुद्धं सदपि कांग्रेस दलस्य सांसदे निरन्तरं विरोध ज्ञापनस्य अनन्तरं सभामुखेन ह्यस्तनोपवेश स्थगितीकृतः। प्रतिनिधिसभाय अपरोपवेशः श्व अष्टाविंशे दिवसे मंगलवासरे दिवा एकवादने वस्ता। सर्वकारेण आगामिनी चैत्रमासे आयोक्ष्यमाणस्य सगरमाथा संवादस्य पूर्वकार्यस्य सन्दर्भे गतदिने काष्ठमण्डपे सगरमाथा राष्ट्रिय संवाद आयोजितः। राष्ट्रिय क्षेत्रीयान्तर्राष्ट्रिय विश्वस्तरीयाणाम् सामयिकीनाम् संयुक्तानाम् च अभिरूचीनाम् विषये सघन विमर्शनस्य उद्देश्येन सर्वकारेण आगामिनि चैत्रमासे सगरमाथा संवाद आयोक्ष्यमाणो वर्तते। सगरमाथा राष्ट्रिय संवादस्य पूर्वकार्यस्य सन्दर्भे आयोजितं सगरमाथा राष्ट्रिय संवादम् उद्घाटन उप प्रधान रक्षा मन्त्री ईश्वर पोखरेलः अकथयत् जलवायु परिवर्तनस्य प्रभावस्य नेपाले अधिकं निपतनस्य सन्दर्भे जलवायु अनुकूलने प्रभाव न्यूनीकरणे च अधिकं विमर्शव्यम्। उप प्रधानमन्त्री पोखरेलः जलवायु परिवर्तनाय विकसित राष्ट्राणि यथा दायित्व बाहेकानि सन्ति तथा नेपाल सदृशानाम् अत्यल्प विकसित राष्ट्राणाम् भूमिका नास्तीति चर्चयन् अभाषत परम इमानी राष्ट्राणि जलवायु परिवर्तनस्य अधिकं दुष्प्रभावे निपतितानि सन्ति। कार्यक्रमे परराष्ट्र मन्त्री प्रदीप कुमार गेवाली सगरमाथा संवादे नेपालेन च अनुभूयमानानाम् वातावरणीय सामाजिकार्थिक सांस्कृतिक प्राविधिक जनजीवन सम्बद्धानाम् विश्वव्याप्य अभिरूचीनाम् विषयाणाम् समस्यानाम् च सम्बन्धे विमृक्षति इति अज्ञापयत्। भूकम्पेन प्राप्त क्षतिनाम् चतुशतस्य सांस्कृतिक सम्पदाम् पुनर्निर्माणस्य कार्यम् सम्पन्नम् वर्तते इति पुरातत्व विभागेन ज्ञापितम् अस्ति। विभागेन गतदिने कार्यक्रम आयोज्य दुई सप्ताह र दुसरतम वैक्रमाब्दस्य भूकम्पेन प्राप्त क्षतिनाम् एकत्रिंशत जनपदानाम् नवशतस्य विंशतिस्य सम्पदाम् मध्ये चतुशतस्य सम्पदाम् पुनर्निर्माण कार्यम् सम्पन्नमस्तीति ज्ञापितम् वर्तते। कार्यक्रमे संस्कृति पर्यटन नागरिक उड्डयन मन्त्री योगेश भट्टराई पुरातात्विक सम्पदा संरक्षण नेपाल विश्वस्य प्राज्ञिक व्यक्तिनाम् अध्ययनानुसन्धानय गन्तव्यस्थलम् सम्पादनीय इत्यत्र बलम् प्रादात्। मन्त्री भट्टराई अवोचत् नेपाल भ्रमणवर्षम् ध्यात्वा काष्ठमाण्डु उपत्यकाय आभ्यन्तराणि पाटन बसन्तपुर भक्तपुर प्रासाद क्षेत्राणि रात्रो अपि अवलोकन योग्यानि विधातुम् व्यवस्था करिष्यते। राष्ट्रिय मानवाधिकार आयोगेन चीन देशस्य हुवई प्रान्ते स्थितानाम् नेपाली नागरिकाणाम् शीघ्रम् सुरक्षित रूपेण स्वदेश प्रत्यावर्तनाय वातावरणम् स्रष्टुम् सर्वकार अनुरोधोऽस्ति। चीन देशस्य हुवई प्रान्ते स्थितानाम् नेपाली नागरिकाणाम् जीवन संकटे पतितुम् शक्नोति इत्यत्र संवेदनशीलो भूत्वा तेषाम् सुरक्षित रूपेण प्रत्यावर्तनस्य वातावरणम् स्रष्टुम् आयोगेन सर्वकार अनुरोधो वर्तते। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेल भासते समानताया सिद्धान्त विपरीततया राज्यन न प्रवर्तनीयम् गदने चितवन जनपदे पत्रकारिता वरिष्ठ नेता पौडेल प्रदेश सर्वकारण विहितान निर्णयनमपि अधिकार दुरूपयोग अनुसन्धान एगेन अनुसन्धान विधातुं न शक्यत्वेन विधेयकम् आनेतुम् ईप्सितम् अस्तीति भाषमाण अनेन कारणेन लोकतन्त्र दुर्बलीकरिष्यति इति विचारं व्यक्तवान्। नेपालस्य भ्रमणे विद्यमानस्य मित्रराष्ट्र बंगलादेशस्य सेना प्रमुखस्य जनरल पदीयस्य अजीज अहमद इत्यस्य प्रधान सेनापति महारथिन पूर्णचन्द्र थापा विदेश च मध्ये ह्य सैन्य कार्यालय शिष्टाचार मेलनम सम्भूतम वर्तते। मेलावार्ताक्रमे एतन्मध्ये द्विपक्षीय हितस्य पारस्परिक सम्बन्धस्य च विषय विमृष्टम्। प्रतिवेशिना मित्रराष्ट्राणाम् उच्च पदस्थ सैनिकाधिकारिणाम् एतादृशेन भ्रमणेन देशद्वयस्य मध्ये स्थितं सैनिक सम्बन्ध अतिरिक्तं सुमधुरं प्रगाढं च विधातुम् अतिरिक्त सहयोगो मेलिष्यतीति विश्वास नेपाली सेनाय वर्तते। संखुवा सभा जनपदे निर्माणधीनयो नवशत मेगावाट परिमित क्षमताय अरूण तृतीय जलविद्युत परियोजनाय विंशत्यधिक शतद्वय मेगावाट परिमिताय कोशी तटीय प्रसारण प्रणाल्याश्च निर्माण एकादश सहस्राणि वृक्षाकर्तिता सन्ति। विद्युत विस्ताराय पञ्चसहस्राणि चतुशतं च वृक्षाकर्तिता इति महाशाखीय वन कार्यालयस्य सहायक वनाधिकृत हेमन्त पराजुली अवोधयत्। पशुपति क्षेत्र विकास कोषेण महाशिवरात्रि अवसरम आलक्ष्य पशुपति क्षेत्रे भक्तजनानां कृते अभिवादन स्वरूपेण नमस्कार अभियानम् प्रारप्स्यते। पौरस्थ्य दर्शनानुसारेण नमस्कार एव नेपालीनम् अभिवादन अस्तीति कारणेन भ्रमण वर्षस्य च समायोजनस्य सन्दर्भे अभियानमेतत् प्रारप्स्यमानं वर्तते इति पशुपति क्षेत्र विकास कोषो ज्ञापयति। नमस्करणात् व्यक्तिनां मध्ये स्पर्श न भवतीति हेतोः कोरोना जीवाणु प्रवृत्ति संक्रामक रोगस्य संक्रमण विस्तारस्य समये ततो रक्षणाय च सहयोगो मेलिष्यतीति कारणात् अभियानमेतत् आवश्यकम् अस्तीति कोषस्य सदसचिव डा प्रदीप ढकाल अतर्कयत् इति समाचारः।